एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रतिनिधिसभायाः ह्यस्तनोपवेशेन गत विक्रमवर्षीयम् वैकल्पिक विकास वित्त परिचालन सम्बद्धम् विधेयकमाधृत्य विचार्यताम् इति उक्त्वा प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। प्रतिनिधिसभाया ह्यस्तनोपवेशे अर्थमन्त्रिणा स्वर्णिम वाग्ली इत्यनेन प्रस्तावोऽयं प्रस्तुतः आसीत्। उपवेशे विधिन्याय संसदीय विषय मन्त्री सुविता गौतमः नेपाल सर्वकारस्य भारत सर्वकारस्य च मध्ये जघन्यापराध सम्बद्धे विषये पारस्परिक विधि सहायता सम्बद्धां संविधान प्रस्तौत। तत्पूर्वम् उपवेशे राष्ट्रिय स्वतन्त्र दलस्य उपनेता गणेश पराजुली, नेपाली कांग्रेस दलस्य संसदीय दलस्य नेता भीष्मराज आङदेम्बे, नेकपा एमाले दलस्य संसदीय दलस्य नेता रामबहादुर थापा, नेपाली कम्युनिष्ट दलस्य संसदीय दलस्य नेता पूर्व प्रधानमन्त्री च पुष्पकमल दाहाल प्रचण्ड, राप्रपा दलस्य संसदीय दलस्य नेता ज्ञानेन्द्र बहादुर साई, संस्कृति दलस्य अध्यक्ष हर्कराज राई, स्वतन्त्र सांसद महावीर पुञ्च समसामयिक विषयेषु स्वकीयां धारणां व्यक्तवन्तः। तत्पूर्वम् उपवेशस्य शून्य समये सांसदाः नदीतटीय क्षेत्रेषु अवैधरूपेण जायमानेन उत्खननेन वातावरणं जनजीवनं च संकटे आपतितेऽस्त इति चर्चयन्त अस्य नियन्त्रणाय बलं दत्तवन्तः। एवमेव प्रतिनिधिसभायाः उपवेशस्य प्रारम्भे प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन सर्वकारस्य नीति कार्यक्रमाणां प्रस्तुतेः क्रमे संसद उपवेशात् प्रधानमन्त्रिणः बहिर्गमनस्य कारणस्य विषयं सदनं विज्ञापयितुं सभामुखस्य माध्यमेन प्रधानमन्त्री बालेन्द्र शाह अनुरुद्धः आसीत्। प्रतिनिधिसभायाः अपरोपवेशः अद्य एकादश वादने वसति। सर्वकारेण विद्यालयस्तरस्य शैक्षिकावस्थायाः भौतिक पूर्वाधाराणाम् अवस्थायाश्च विषययोः विस्तृतम् अध्ययनं विधीयमानमस्तीति ज्ञापितं वर्तते। प्रतिनिधिसभायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः पूर्वेद्यो सिंहप्रासादे उपविष्टे उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री सस्मित पोखरेलः सर्वकारेण आराष्ट्रं विद्यालय भवनानां क्रीडा प्राङ्गणानां शिक्षक कर्मचारी विद्यार्थीनाम् अन्यविध भौतिक संरचनानां च विषयेषु विस्तृतम् अध्ययनं विधीयमानमस्ति। अध्ययनेन प्राप्तानि तथ्यानि आधृत्य विद्यालयस्तरस्य सम्पूर्ण पूर्वाधारस्य पुनः संरचना विधास्यते इति प्रतिबद्धतां व्यक्तवान्। तत्पूर्वम् उपवेशे सांसदैः विस्थापितानां भूम्यावासहीनानां जनानां पठन पाठनयोः शिक्षा विधेयकस्य क्रीडा शिक्षायाः अनलाइन माध्यमेन पठन पाठनयोश्च विषयेषु मन्त्रिणः ध्यानाकर्षणं विहितम् आसीत्। भौतिक पूर्वाधार यातायात मन्त्री सुनील लम्सालः मार्ग सुरक्षायाः सुदृढीकरणाय आधारभूत पूर्वाधाराणां विकासाय च सर्वकारः प्रतिबद्धोऽस्तीति उक्तवान् वर्तते। प्रतिनिधि सभान्तर्गतायाः पूर्वाधार विकास समिते ह्यस्तनोपवेशे मन्त्री लम्सालः मार्ग सम्बद्ध सुरक्षा विषयं सुदृढं विधातुं मार्गाणां सम्भारस्य योजनानां कृते पर्याप्त रूपेण वित्तस्य व्यवस्थापनं विहितमस्तीति असूचयत्। तदवसरे मन्त्री लम्सालः मार्ग दुर्घटनानां न्यूनीकरणस्य कृते यातायात व्यवस्थापनस्य मार्गदीपानां सेतूनां निर्माणस्य भूस्खलनानां नियन्त्रणस्य मार्गाणां विस्तारस्य च योजनानां सञ्चालनाय पूर्वकार्यं विधीयमानमस्तीति असूचयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन सभामुखस्य डोलप्रसाद अरियालस्य परामर्शेन प्रतिनिधिसभायाः सचिव हर्कराज राई पदात् मुक्तोऽस्ति। राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा रितेश कुमार साक्येन विज्ञप्तिं प्रकाश्य सचिव राई पदात् मुक्तोऽस्तीति ज्ञापितं वर्तते। राष्ट्रपतिना पौडेलेन सभामुखेन विहितस्य परामर्शस्य अनुसारेण संघीय संसदः महासचिवस्य प्रतिनिधिसभायाः सचिवस्य राष्ट्रिय सभायाः सचिवस्य च सेवा सौविध्य सम्बद्धस्य पञ्चसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य अधिनियमस्य अनुसारेण राई पदात् मुक्तोऽस्तीति विज्ञप्तौ उल्लिखितं वर्तते। अर्घाखाँची जनपदस्य पाणिनी ग्रामपालिकायाः अष्टमवडा क्षेत्रवर्तिनी घुम्ती इति स्थाने बसयानस्य दुर्घटनायां चत्वारो जनाः मृताः सन्ति। दुर्घटनायां सप्तविंशतिर्जनाः आहताः वर्तन्ते। दुर्घटनायां कास्की जनपदस्य पोखरा महानगरपालिकायाः एकोनविंशवडा क्षेत्रस्य अष्टासप्ततिवर्षीयौ राममाया बस्नेत बिन्दु कुँवर च पर्वत जनपदस्य मोदी ग्रामपालिकायाः पञ्चाशद वर्षीया कुशिला रेग्मी बसयान चालक रमेश जीशीचा मृता सन्ती अर्घाखाँची जनपद प्रशासन कार्यालय ज्ञापित वर्तते सुपा देउराली स्थानात पर्वत जनपदम प्रति प्रस्थियमानम बसयानम मार्गात शत मीटर मितम अध पतितम आसीत आतानाम जनानाम उपचार जायमानो स्थिति प्रहरिणा ज्ञापितम वर्तते सानठीमी वर्तिना शिक्षा मानव स्रोतो विकास केन्द्रेण सप्ताहे दिनद्वयस्य अवकाश प्रदानस्य सर्वकारस्य निर्णयस्य पश्चात् विद्यालयेषु प्रदीयमानस्य वर्षाकालिक शीतकालिकयोः अवकाशस्य दिनानि न्यूनीकृतानि वर्तन्ते पाठ्यक्रमस्य अनुसारेण पठन पाठनयोः पूरणस्य अभावस्य अवस्थायाः सर्जनानन्तरं केन्द्रेण वर्षाकालिक शीतकालिकयोः अवकाशस्य पञ्चचत्वारिंशतम् दिनानि न्यूनीकृत्य त्रिंशत् दिनानि निर्धारितानि सन्तीति केन्द्रस्य निर्देशकः डाक्टर श्याम प्रसाद आचार्यः असूचयत् सहैव केन्द्रेण सोमवासरात् शुक्रवासरम् यावत् सम्पूर्ण समय पठन पाठनाभ्याम् सम्बद्धम् क्रियाकलापम् सञ्चालयितुम् सर्वाः शिक्षा विकास समन्वयमा शाखा स्थानीय स्तरस्य सर्वकाराः विद्यालयश्च अनुरुद्धाः सन्तीति निर्देशकः आचार्यः असूचयत् सैव केन्द्रेण प्रतिदिनं प्रार्थनाया कृते पञ्चदश निमेषान् अल्पाहारस्य कृते त्रिंशत् निमेषाञ्च निर्धारयितुं निर्देशनं प्रदत्तं वर्तते राष्ट्रिय परीक्षा समित्या दशम्यां कक्षायां माध्यमिक शिक्षा परीक्षायां श्रेणीहीनानां छात्राणां कृते आगामिनः आषाढमासस्य प्रथम दिवसात् श्रेणीवृद्धेः परीक्षा सञ्चालयिष्यते इति सूचितं वर्तते।